तत्स विदुर्वृणीमहे वयम् देवस्य भोजनम् श्रेष्ठम् सर्वधातवम् तु रम्भकस्य धीमहि अस्य हि स्वयासस्तरम् स विदुः कश्चन प्रियम् न मिनन्ति स्वराज्यम् स हि रत्नानि दाजुषे सुभाति सविता भगाः तम् भागम् चित्रमीमहे अद्यानो देवसविदः प्रजावत्साभिः सौभागम् परा दुष्वप्न्यम् सुव विश्वानि देवसविदर्दुरितानि परा सुव यद्भद्रम् तन्नासुव अनागसो अदीतये देवस्य सवितुः सवे विश्वा वामानि धीमहि आ विश्वदेवम् सत्पादिम् सूक्तैरद्यावृणीमहे सत्यसवम् सवितारम् यजीवे उभे अहनि पुनयेद्य प्रायुच्छन् स्वाधीर्देवः सविता यजिमा विश्वा जातान्या श्रावयति श्लोकेन प्रजा सुवादी सविता